कुमारं माता जो भते समब्धं गुहा बिभर्ति न ददाति पित्रे अनेकमस्य न विनज्जना सः पुरः पश्यन्ति निहितमरतौ कमेतं त्वं यो भते कुमारं वेषे बिभर्षि महिषे जजान पूर्वेर्हि गर्भः शरदो भवर्धा पश्यन् जातं यदसूत माता हिरण्यदन्तं शुचिवर्णमाराक्षेत्रादपश्यमाजुधामिमानम् ददानो अस्मामृतम् विप्रक्वत्किम् मामनिन्द्राः कृणवन्ननुक्थाः क्षेत्रादपश्यम् सनुतश्चरन्दम् सुमद्योथन्न पुरुषोभमानम् नता अग्रभ्रन्न जनिष्टहिषः परिक्लेरित्युपतजो भवन्ति के मे मर्यकम् विजवन्त गोभिर्नजेषाम् गोपा अरणश्चिदास य एञ्जगृभुरपते सृजन्वाजादिपश्व उपनश्चिगित्वान् वसाम् राजानम् वसतिम् जना नामरातजो निदधर्मर्त्येष ब्रह्माण्यत्रैरवतम् सृजन्तु निन्दितारो निन्द्यासो भवन्तो शुनश्चिच्छेपन्निदितम् सहस्राद्योपादमुञ्चो अशविष्टहिषः एवास्मदग्ने विमुग्धिपाशान्होतश्चिकित्व इहतो निषद्य ऋणीयमानो अपहिमदय्येः प्रमे देवानाम्रतपा उवाच इन्द्रो विद्वाँ अनुहित्वा जजक्षते नाहमग्ने अनुशिष्ट आगा द्विज्योतिषा बृहता भात्यग्निराविर्विश्वानि कृणुते महित्वा प्रादेवीर्माया सहते दुरे भाषिषीते शृङ्गे रक्षसे विनिक्षे उत स्वानासो दिविशन् त्वग्ने स्तिग्माजुधा रक्षसे हन्तवा मदे चिदस्य प्ररुजन्ति भामानवरन्ते परिबाधो अदेवीः एतन्ते स्तोमम् तु विजात विप्रोरथन्न धीरस्वपा अदक्षम् यदि तग्ने प्रतित्वन्दे बहर्यास्वर्वतीरप एनाजजेम तु विग्रीवो वृषभो वा वृधानो शत्रुवा अर्यः समजाति वेदाः इति ममग्निममृता अवोचन् बर्हिष्मते मनवे शर्मजं सद्ध विष्मते मनवे शर्मजं सत्